इयं आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी। अथ वार्ताः। अद्यारभ्य तमिलनाडोः सूलूर नगरे स्वस्य प्रथमस्य बहुराष्ट्रियस्य भारतम् विमानाभ्यासस्य तरंग शक्ति इत्याख्यस्य 24,000-2,000 आयोजनं करिष्यति। एतस्मिन् अभ्यासे आहत्य 30 देशाः भागं ग्रहीष्यन्ति। तत्रैव एतेषु 30 देशेषु 10 देशाः स्वीय योद्ध विमानैः सह अभ्यासेऽस्मिन् सम्मिलिताः भविष्यन्ति। अभ्यासोऽयं चरणद्वये आयोजयिष्यते, यस्योद्देशं भारतस्य रक्षाक्षमतायाः प्रदर्शनमिति अस्ति। नवदिल्ल्यां वार्ताहरैः सह सम्भाषमाणः वायुसेनायाः उपप्रमुखः एपी सिंहः अवोचत् यत् अभ्यासस्य प्रथमं चरणम् अद्यारभ्य अगस्तमासस्य 14 दिनांकं यावत् तमिलनाडोः सुलूरनगरे, तदनु द्वितीयं चरणम् अगस्तमासस्य 29 दिनांकतः सितम्बरमासस्य 14 दिनांकपर्यन्तं राजस्थानस्य जोधपुरनगरे समनुष्ठास्यति। उपप्रमुखेन विज्ञापितं यत् ऑस्ट्रेलिया, बांग्लादेश, फ्रांस, जर्मनी, ग्रीस, स्पेन, संयुक्त अरब अमीरात, अमेरिका, सिंगापुर देशान् समेत्य 10 देशाः स्वयोद्ध विमानैः सह अभ्यासे एतस्मिन् सम्मिलिताः भविष्यन्ति। अभ्यासावधौ उड्डयन प्रशिक्षण रक्षा प्रदर्शनी सम्बद्धाः कार्यक्रमाः अपि समायोजयिष्यति। प्रधानमन्त्रिणः नरेन्द्र मोदिनः आध्यक्ष्ये सुरक्षाम् अभिलक्ष्य मन्त्रिमण्डल समित्या ह्यः नवदिल्ल्याम् एकम् उपवेशनम् समाकारितम्। बांग्लादेशस्य च स्थितिरपि समीक्षिता। एतस्मिन् उपवेशने विदेशमन्त्री डॉ एस जयशंकरः, गृहमन्त्री अमितशाहः, रक्षामन्त्री राजनाथसिंहः, वित्तमन्त्री निर्मलासीतारामन् इत्येषा अन्ये च उपस्थिताः अभवन्। प्रधानमन्त्री नरेन्द्रमोदी प्रोदीरितवान् यत् प्रशासनम् जम्मूकश्मीर लद्दाखयोः जनेभ्यः कार्यं सततं करिष्यति, तथा च एतयोः राज्ययोः जनानाम् आकांक्षाः अपि सम्पूरयिष्यति। श्रीमोदी सामाजिक संचार पटले एकस्मिन् अलिखत् यत् पञ्चवर्षेभ्यः प्राक् ह्यः एव अगस्तमासस्य 5मे दिवसैव संसदा 70+300 अनुच्छेदस्य 35 अ इत्येतस्य निरसनस्य निर्णयः निर्णीतः। निर्णयोऽयं राष्ट्रस्य ऐतिह्ये अविस्मरणीय क्षणमस्ति। असौ अग्रे कथितवान् यत् अयं जम्मूकश्मीर लद्दाखयोः प्रगतेः समृद्धेश्चापि एकस्य नवीन युगस्य प्रारम्भस्य युगो विद्यते। भ्रष्टाचार पीडिताय जम्मूकश्मीराय समस्यायाः मुक्तिः अपि प्रदत्ता। उत्तराखण्डस्य रुद्रप्रयाग जनपदे केदारनाथधाम्नि आपत् प्रभाविते क्षेत्रेषु साहाय्योद्धार कार्याणि सम्प्रत्यपि प्रचलति। साम्प्रतं यावत् 10,000+ जनाः सुरक्षिताः जाताः। ऋतोः अनुकूलतया सेनायाः MI-17 चिनूक उदग्र विमानाभ्याम् जनाः सुरक्षित स्थानानि प्रति नीताः। आपत्मोचनबलस्य प्रमुखः सुदेश कुमारः सूचितवान् यत् साहाय्योद्धार कार्याणि एतानि सर्वाणि अद्य यावत् सम्पूरितानि भविष्यन्ति इति आशा अस्ति। राष्ट्रपतिः द्रौपदी मुर्मुः ह्यः 2-दिवसीय आधिकारिक यात्रायाः कृते फिजीदेशं सम्प्राप्तवती। अवधेयं वर्तते यत् अद्यावधिः भारतस्य राष्ट्रपतेः फिजीदेशस्य इयं प्रथमा यात्रा वर्तते। फिजीदेशस्य उपप्रधानमन्त्री विलियम गवोका तथा फिजीदेशस्य भारतीयोच्चायुक्तः PS कार्तिकेयनः च राष्ट्रपतेः भव्यं स्वागतं कृतवन्तौ। राष्ट्रपतिः अगस्तमासस्य 6-7 दिनांकेषु सुवा नाडी नगरयोः आधिकारिक संगतिषु भागं ग्रहीष्यन्ति। राष्ट्रपतिः फिजीदेशस्य प्रधानमन्त्रिणा सह द्विपक्षीय समागममपि करिष्यति। इति वार्ताः।